सर्वेभ्यो नमस्कारः। अद्य तत्पुरुषसमासप्रकरणे अष्टमः पाठः कर्मधारयसमासः अनुवर्त्यते। येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारम्बररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तीश्वरिभाव्यज वैयाकरणसिद्धान्तकौमुदीं विरच्यते। कण्टिन्यूइङ्ग् वित् कर्मधारय समासः। विशेषणं विशेषेण बहुलम् इति औत्सर्गिकं कर्मधारयसमासविधायकं सूत्रम्। विशेषण कम्बैन्स् विट् विशेष्य समानाधिकरण विशेष्य। So there are many exceptions to the sutra, not exceptions to the sutra itself, but where there are certain rigid rules for Purva Nipata. Whenever we combine words through Visheshanam Visheshanam, the Visheshana or the adjective gives Purva Nipata. There are some cases where the adjective might be fixed, or there are cases where, depending on the Vivaksha, either word could be the adjective. So there are many sutras in which Panini specifies certain words in Prathama Vibhakti, which means that they will be compulsorily placed first because of Upasarjana Samhita. So we just saw a sutra of that kind. Tanmahat Paramottamot Krishtaha Pujyamanaihi इति दृष्टम्। सन् महत् परम उत्तम उत्कृष्ट, दीस् फैव् वर्ड्स् दे कम्बैन् वित् थिङ्ग्स् विच् आर् बीङ्ग् प्रेस्ड्। ओके, सो नौ वृन्दारक नागपुञ्जरैः पूज्यमानम्, पूर्वं पूज्यमानेन सह समासः इति उक्तम्। अत्र पूज्यमानम् इति प्रथमाविभक्तौ, द थिङ्ग् विच् इस् प्रेस्ड् कम्बैन्स् वित् दीस् त्री वर्ड्स् वृन्दारक नाग एण्ड् कुञ्जर। वृन्दारक नागकुञ्जरैः पूज्यमानं समस्यते, अर्थात् अत्र अनेन सूत्रेण यदा समासः तदा पूज्यमानस्य पूर्वनिपातः प्रथमानिर्दिष्टत्वात् भवति। गौः वृन्दारक इव गोवृन्दारकः। वृन्दारकः नाम देवता इत्यर्थः, वृन्दारक दैवतानि इति अमरे अपि भवति। गौः वृन्दारक इव गोवृन्दारकः, अत्र गौः पूज्यमानम्, इट् इस् द कौ विच् इस् बीङ्ग् प्रेस्ड् एस् बीङ्ग् सिमिलर् टु अ गाड्। अतः गोशब्दस्य पूज्यमानत्वात् पूर्वनिपातः गोवृन्दारकः। वृन्दारकशब्दः देवतावाची। गौः नाग इव गोनागः। नाग इस् एन् एलिफेण्ट्, सो एलिफेण्ट् इस् जनरली कन्सिडर्ड् ग्रेट्, अत एव प्रशंसावाचकः। गौः कुञ्जर इव गोकुञ्जरः। कुञ्जरशब्दः अपि गजवाचि। अत्र कश्चन प्रश्नः, गौः वृन्दारक इव इत्यस्ति, यथा पुरुषः व्याघ्र इव पुरुषव्याघ्रः इति समासः, तथा अत्रापि उपमितं व्याघ्रादिभिः इत्यनेन गौः उपमीयते, अर्थात् उपमेयः, वृन्दारकः उपमानम्, व्याघ्रादेः आकृतिगणत्वात्, व्याघ्रादिगणः आकृतिगणः इति सः दृष्टम्। So we can, it's an extendable class where we can add similar words. Okay, we add many words to make samasas. Yathradeha akriti ganatvadeva siddhe. So these samasas can be done by including these words, Vindaraka, Naga and Kunjara in Vyadhradigana. Upamitam Vyadhradivihi ityanenaiva samasaha bhavati punaha idam sutram kimartham iti prashne samanya prayogartham vatanam. तत्र किमुक्तम्, उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे, साधारणधर्मस्य प्रयोगाभावे सत्येव सः समासः भवति। अत एव पुरुषव्याघ्रः इति समासः, यदि शौर्यादिकं सामान्य सामान्यधर्मं वक्तुम् इष्यते तदा तु पुरुषः व्याघ्रः इव शूरः इति व्यस्तः एव प्रयोगः इति दृष्टम्। अत्र तु सामान्यप्रयोगेऽपि समासः भवति, अर्थात् गोकुञ्जरः श्रेष्ठः, गौः कुञ्जर इव श्रेष्ठः इति वाक्यम्, किन्तु समासे गोकुञ्जरः श्रेष्ठः इत्यपि भवितुम् अर्हति अनेन विशिष्टतया समासस्य उक्तत्वात्। इन् दिस् केस् इन् दीस् त्री केसेस् इवन् वेन् वि यूस् already in the Samana Dharma is explicitly told Tadapi Samasaha Bhavati Tadarthameva Vishishya Sutram Vyakhadehe Akriti Ganatva Deva Siddhe Samanya Prayogartham Vachanam. Antrivam Sutram Asti Katara Katamau Jati Pariprashne Katara Katama Ityetav Shabdav Samasyete Jati Pariprashne Gamye Katara Katamau Samanadhikaranena Samasyete. It does not tell which specific word, any subanta which has samathya. Samathena subantena samanadhikaranena. Itra samanadhikaranyam asti tatra samasaha bhavati. Jati pariprashnaha namakaha. Kataraha kataha. Ityasti katara shabdasya katha shabdena samasaha. Kataha nama katha shakha dhyayi. Ityasthaha. He who studies the katha shakha of the Vedas is called katha. Okay. Katara kataha ityasya kaha arthaha anayoho kaha kataha. Tara is a pratyaya. Tara pratyaya is added when there is a question or nidhana between two people. Okay. So when there are two people, tayoh madhye yada prashnaha athava tayor vishaye yada uchyate tada tara pratyaya upayujyate. So kataraha kataha ityasya anayoho dvau staha तयोर मध्ये कः कठः इति प्रश्नः कतर कठः अत एव जाति परिप्रश्न जातेः विषये ज्ञातुम् इच्छया क्रियमाणः प्रश्नः जाति परिप्रश्नः तस्मिन् गम्ये सो व्हेन देयर इज अ क्वेश्चन रिगार्डिंग द जाति ओके कठ इति अत्र जातिवाचक शब्दः कतर कठः इति समासः भवति एवं कतम कलापः इति कलापः इज अनदर शाखा ऑफ द वेद सो द वन हु स्टडीज कलाप शाखा इज कॉल्ड अ कलापी और कलापः हिमसेल्फ एषां कः कलापः सो कतम इज यूज्ड व्हेन द क्वेश्चन इज बिटवीन मेनी देयर आर मेनी पीपल एषां मध्ये कः कलापः नाम कलाप शाखा अध्यायी इति प्रश्नः तदा तु कतम शब्दस्य कलाप शब्देन सह समासः गोत्रञ्च चरणैः सह इति जातित्वम् Question is, how do the words katha and kalapa indicate jati? Jati vachakatvam katham tesham iti prashnaha. So, tatra jati hi nama ka iti prashnaha vashyate. Kachana kachana karika vidyate. There is a karika which defines jati. What exactly is a jati? Prashnaha. Akritik grahana jati hi linganancha sarvabhak sakradakhyadi nirgrahya gotrancha charanai saha. This has been quoted in the Kaumudi in the Stri Pratyaya Prakarana where you, there is a discussion on Jati Vachaka Shabda. So there are three kinds of jatis, or there are three things which could be called a jati. Akriti Grahana Jati is the first definition of a jati. A class is something that can be known by looking at the form. For example, if you look at a cow, there is a form to the cow which is present in all the cows and helps in knowing the individuals belonging to that class. So the all individuals belonging to that particular class can be identified by their form. Say you have a cow or you have a elephant, you have a tiger, whatever. You have a man, manushyatvam jatihi. Gotvam jatihi, vrikshatvam jatihi, amra vrikshatvam jatihi. So, based on their physical form, you can identify members of the class. Tadrishi jatihi eka, akriti grahana jatihi. The second definition is, linganaanchana sarvabhaka sakradakhyati nirgrahya. There are some jatis which cannot be known by looking at the form. Say, brahmanatvam ityasti. Darshanena na jnayate, just by looking at it. I mean, there might be cases where there might be some external Eshapushana which might help to identify, but just by looking at an individual, it is generally not possible to identify. It is not an akriti grahana. Looking at the akriti, you cannot find a jati. In that case, there is a case where sakrad akhyati nirgrahya linganamchana sarvabhar. There is a jati. In this case, sarveshu lingeshu nabhavati. It does not exist in all three lingas. That is, it generally exists in Sri Linga and Pullinga only. Sakradakhyadi nirgrahya. And once an individual is pointed out, it is possible to trace that jati. That is what they say is, if Brahmanatva, if you say, if you point at, say, Kashchana Devadattaha asti, saha Brahmanaha ityukte, तस्य पितरौ पिता पिता पितामहः इति सर्वेपि ब्राह्मणाः इति ज्ञायते सकृदाख्याति वेन् टोल्ड् वन्स् इट् इस् पासिबल् टु ट्रेस् दट् जाति थ्रू मेनि इण्डिविजुवल्स् सो तादृशी जातिः काचन गोत्रञ्च चरणैः सह एण्ड् द गोत्र आफ् अ पर्सन् दट् इस् द लीनियेज् आफ् ऋषीस् फ्रम् हीस् डिसेण्डेड् द चरण इस् द वेदशाखा विच् ही विच् अ पर्सन् स्टडीस् सो सा अपि जातिः इति उच्यते सो देर् आर् त्री कैण्ड्स् आफ् जातिस् इन् दिस् पर्टिक्युलर् केस् गोत्रञ्च चरणैः सह इति जातित्वम् सो द जातित्व इस् ड्यू टु द शाखा आफ् वेदशाखा विच् ही स्टडीस् गोत्रञ्च चरणैः सह इति जातित्वं कठकलापशब्दयोः ताभ्यां सह कतरशब्दस्य कतमशब्दस्य च समासः प्रथमानिर्दिष्टत्वात् पूर्वनिपातः किं क्षेपे इति अग्रिमं सूत्रं निन्दायां गम्यमानायां क्षेपः नाम निन्दा निन्दायां गम्यमानायां किम् इति अव्ययम् सो किं हियर् किम् इस् एन् अव्यय इट् इस् आल्सो अ शब्द विच् एक्सिस्ट् इन् त्रीलिङ्गस् अत्र अव्ययस्य समासः किम् इति अव्ययम् समानाधिकरणेन समस्यते स तत्पुरुषः कुत्सितः राजा किं राजा अस्ति किम् इति शब्दस्य राजन् शब्देन च सः समासः एस् आल्वेस् क्षेपः वाक्येन निन्दा न अवगम्यते इत्यतः समासः नित्यसमासः सो किं राजा इस् अ नित्यसमास एण्ड् देर् फोर् द विग्रहवाक्य इस् अश्वपदविग्रह नित्यसमासे सर्वदा अश्वपदविग्रहः अत एव कुत्सितः राजा किं राजा इत्यस्य कः अर्थः कुत्सितः राजा राजा हू इस् बीङ्ग् कण्डेम्ड् इत्यर्थः किमर्थं ह्यः न रक्षति who does not protect his subjects, what sort of a king is he? Iti ashayaha prayogasya, ata eva kutsitaha raja, iti vigrahaha. Nitya samasoyam, vakyena nindana magamata, sapara vigrahaha, nasti. Eva meva kim sakha, kutsita sakha, kim sakha, ityadayaha prayogaha. There are a lot of such prayogas. कोटा युवति स्तोक कतिपय दृष्टिधेनु वशा वेहद्वष्करिणी प्रवक्तृ श्रुत्र्याध्यापक धूर्तैर्जाति लाङ्ग् सूत्र देर् इस् नथिङ्ग् वेरि स्पेशल् देर् इस् अ लिस्ट् आफ् वर्ड्स् कोटा युवति स्तोक कतिपय दृष्टिधेनु वशा वेहद्वष्करिणी प्रवक्तृ श्रोत्र्याध्यापक धूर्तैः वित् दीस् वर्ड्स् जातिः जातिवाचकशब्दः समस्यते अ वर्ड् विच् इण्डिकेट्स् जाति जातिवाचकशब्द विल् कम्बैन् वित् दीस् एज़् वी नो जातिवाचक जनरलि हेपन्स् टु बी द विशेष्य सो इट् जनरलि टेन्स् टु बी द उत्तरपद ओके सिन्स् इट् इस् अ विशेष्य विशेषण विल् बी द पूर्वपद एण्ड् जातिवाचकपद विल् बी द उत्तरपद किन्तु अत्र जातिः इति प्रथमा विभक्तौ निर्दिश्यते इत्यतः तस्य पूर्वनिपातः भवति कश्चन प्रश्नः अस्ति नित्यसमासः इति कथं ज्ञातव्यम् सो देर् आर् सम् रूल्स् एस् ऐ सेड् अ संज्ञावाचकशब्द इस् आल्वेस् अ नित्यसमास वेर् देर् इस् अ स्पेशल् मीनिङ्ग् बीङ्ग् कन्वेर्ड् फ्रोम् द निन्दा लैक् यु हेव् बीङ्ग् कन्वेर्ड् फ्रोम् द समास लैक् अ निन्दा वेर् एवर् हि सेस् क्षेपे आर् समथिङ्ग् सो आल् सच् केसस् हेपन् टु बि नित्यसमास अदर् केसस् प्रयोगतः ज्ञातव्यम् by prayoga you will know there are some cases where it is nitya samas but mostly it is this cases if it is a samya or where a special meaning is being given by the samasa like say there was nityam krida jivikayoho when there is a samasa you will know that it is a name of a game or that again it is a samya so in such cases it is nitya samas Going back to this sutra. Jatibhacaka shabdaha anai evhissaha samasyate. Motadibhihi samanadhi karanaihi jatibhacakam samasyate satat purushaha jasthaha. So finally we come to the definition of karmadharaya. Etavat paryantam samanadhi karana samasaha iti adhitaha. Intu kutrapi karmadharaya samyayaha upayogaha nakrutaha. We have not used karmadhare samya anywhere. It is just a tatpurusha. इदानीं कर्मधारय संज्ञायाः उपयोगः अस्ति, अतः कर्मधारयः नाम कः इति संज्ञासूत्रं दीयते दीक्षितैः. तत्पुरुषः समानाधिकरणः कर्मधारयः इति कर्मधारयसंज्ञाविधायकं सूत्रम्. त्रीणि पदानि सन्ति. समानाधिकरणः तत्पुरुषः, तत्पुरुषसमास इति समानाधिकरण, इट् इस् काल्ड् कर्मधारय संज्ञासूत्रम्. कर्मधारयसंज्ञा विधीयते, समानाधिकरणस्तत्पुरुषः इति संज्ञी. समानाधिकरणः नाम कः? समानम् नाम एकम् अधिकरणम् वाच्यम् ययोः पदयोः ते समानाधिकरणे पदे. सो टू वर्ड्स् आर् काल्ड् टु बि समानाधिकरण वेन् देर् अधिकरण इस् द सेम्. एकम् अधिकरणम् ययोः, ते यस्मिन् समासे स्तः, दट् समास इन् विच् बोत् वर्ड्स् आर् इन् समानाधि आर् समानाधिकरण, देन् दट् समास इस् काल्ड् कर्मधारय. उदाहरणमस्ति सुन्दरः पुरुषः इत्यस्ति. किमस्ति? सुन्दरपदेन यः पदार्थः वाच्यः, तदधिकरण इस् फार् दर्थ. टु वाट् वर्ड् डस् दिस् रेफर् टु? द वर्ड् सुन्दर रेफर्स् टु सर्टन् पर्सन्. सुन्दरपदेन यः पदार्थः वाच्यः, स एव पदार्थः पुरुषपदेनापि उच्यते. सो बै द वर्ड् पुरुष इट् सेल्फ् आल्सो यु आर् रेफरिङ्ग् टु द सेम् पदार्थ. So this is called samanadhikaranya. Samanadhikaranya is where two words refer to the same padartha. Tadaiva samanadhikaranya. Yatra samanadhikaranyam bhavati, tada swabhavataha vibhaktihi samana bhavati. So the vibhakti will be the same when there is samanadhikarana because it is referring to the same padartha. Okay? So the definition of samanadhikarana is where samanam adhikaranam. It refers to the same padartha. It does not mean that all words in the same vibhakti need to be samanadhikarana. Okay, so that is not the case. It is true that whenever words are in, I mean, whenever there is samanadhikaranya, the vibhakti is the same. Kintu, the vice versa is not true. It is not true that words in the same vibhakti have to be samanadhikarana. Ramaha, Lakshmanaha, ityasti. Rama padasya yaha padarthaha, Rama ityanena yaha padarthaha vivakshitaha, tadbhinnaha padarthaha Lakshmana padena uchyate. There are two different people, I mean, padarthas which are being told by Rama and Lakshmana. Ataha, yadyapi vibhaktihi ekaiva, tathapi atra samanadhikaranyam nasti. So, do not, I mean, though we generally end up saying samanadhikarana is the same vibhakti, but it is not true that wherever there is same vibhakti, there is samanadhikaranya. Wherever there is same vibhakti and the two words, or two or many words, it could be many also, refer to the same padartha, then we call it as samanadhikaranyam. सो तत्पुरुषसमानाधिकरणः कर्मधारयः इति कर्मधारयस्य विशेषणम्. कुम्वत्कर्मधारय जातीयदेशीयेषु इति कुम्वद्भावविधायकं सूत्रम्. सो कुम्वद्भाव यत्र स्त्री स्त्रीलिङ्गपदस्य कुम्वद्भावः, विनवरपद एक्सिस्ट् इन् बोत् लिङ्गस्, स्त्रीलिङ्ग वर्ड् इस् कम्बैनिङ्ग् टु फार्म् अ समास, इट् इस् कन्वर्टेड् टु द पुल्लिङ्ग फार्म्. This is called Pumbad Bhava. Pumbad, like the Pullinga form. Striyam Pumbad Bhashita Kumskad Anung Samanadhikarane Striyam Apurani Priyadishu. That is the main sutra which gives Pumbad Bhava. Striyaha Pumbad. For the Sriyanga word, there is Pumbad Bhava under certain conditions. That is the main sutra which gives Pumbad Bhava. So, Tataha, Tasmat Sutra, Striyam Pumbad Bhashita Kumskad Anung iti anuvartate. कर्मधारये जातीयदेशीययोश्च परतः. सो कर्मधारय जातीयदेशीयेषु इति सूत्रे अस्ति. कर्मधारय समासे तथा जातीय देशीय जातीयर इति तर्जित प्रत्ययः देशीयर इत्यपि तर्जित प्रत्ययः सो तयोः प्रत्ययोश्च परतः भाषित पुंस्कात् परः उङ्गभावः यस्मिन् सो भाषित पुंस्काद् अनु इत्यस्ति भाषित पुंस्कम् नाम किम् सो दट् वर्ड् विच् एक्सिस्ट् इन् स्त्रीलिङ्ग अण्ड् आल्सो एक्सिस्ट् इन् पुल्लिङ्ग दट् वर्ड् विच् एक्सिस्ट् इन् बोत् पुल्लिङ्ग अण्ड् स्त्रीलिङ्ग इस् काल्ड् अ भाषित पुंस्क So the word has to be a bhashita pumska. If it is a nitya strilinga, there cannot be pumvad bhava. Yat padam pullinge strilinge cha bhavati, tattaiva pumvad bhava bhavitum arhati. Unga bhava yasmin. Also that word, that stripratyanta word, should the strilinga word should not be unganta. There is a pratyaya called ung among stripratyas. Like you have shvashuraha, tasya strilinge shvashruhu, iti bhavati, ung pratyaya. So it should not be an unganta. Tathabhudam purvam. तादृशं पूर्वपदं पुंवत् भवति सो वेन् फालोड् बै वेन् इन् कर्मधारय समासः एण्ड् वेन् फालोड् बै जातीयर् एण्ड् देशीयर् प्रत्ययस् सो द भाषित पुंस्क विल् गेट् पुंवत् भाव इस् द मीनिङ्ग् किमर्थमिदं सूत्रम् इति प्रश्नः यतोहि यत् मुख्यं सूत्रमस्ति स्त्रियाः पुंवत् इति समानाधिकरणे इति उच्यते सो दट् पुंवत् भाव टेक्स् प्लेस् वेन् देर् इस् समानाधिकरण्य सो द समानाधिकरण्य नीड् नाट् बि जस्ट् कर्मधारय बहुव्रीहौ अपि समानाधिकरण्यं भवति ओके सो वेन् यु आर् सेयिङ्ग् मेनी केसेस् वेर् एवर् यु हाव् पीतम् अम्बरम् इत्युक्ते पीत शब्दस्य अम्बरस्य पदस्य च समानाधिकरण्यम् अस्ति सो समानाधिकरण इस् नाट् आल्वेस् कर्मधारय इवन् बहुव्रीहि इस् समानाधिकरण सो दट् सूत्र द मेन् सूत्र सेस् वेर् एवर् देर् इस् समानाधिकरण्य देर् इस् पुंवद्भाव कर्मधारये अपि समानाधिकरण्यम् अस्ति तर्हि किमर्थमिदं पृथक् सूत्रम् इति पश्यामश्चेत् पूरणीप्रियादिषु अप्राप्तः पुंवद्भावः विधीयते सो दिस् सूत्र स्त्रिया पुंवद्भाषित पुंस्कादनु समानाधिकरणे स्त्रिया अपूरणीप्रियादिषु इत्यस्ति वेनेवर् द फालोयिङ्ग् वर्ड् वेनेवर् द उत्तरपद इस् अ पूरणप्रत्ययान्त आर् इफ् इट् बिलाङ्ग्स् टु द प्रियादिगण पूरणी पूरणप्रत्ययान्तः यदि शब्दः अथवा प्रियादिगणे यदि शब्दः अस्ति तदा पुंवद्भावः न भवति अपूरणी प्रियादिषु इति उक्तत्वात् सो दिस् पर्टिक्युलर् द पुंवद्भाव एस् गिवन् बै द मेन् सूत्र इट् विल् नाट् अप्लै इन् केस् आफ् अपूर पूरणप्रत्ययान्त आर् प्रियादिगण वर्ड्स् बिलाङ्गिङ्ग् टु द प्रियादिगण पूरणी प्रियादिषु अप्राप्तः पुंवद्भावः विधीयते सो बट् इन् कर्मधारय एण्ड् वेन् फालोड् बै जातीयर् आर् देशीयर् पूरणी प्रियादिषु अपि पुंवद्भावः भवति इवन् वेन् फालोड् बै पूरण प्रत्ययान्त वर्ड् आर् वेन् फालोड् बै वर्ड्स् बिलाङ्गिङ्ग् टु प्रियादिगण कर्मधारयः यदि कर्मधारयः तर्हि पुंवद्भावः भवति इत्युक्ते बहुव्रीहादिषु पुंवद्भावः न भवति कर्मधारये तु तत्रापि पूरणी प्रियादिषु अपि पुंवद्भावः भवति तदर्थं पुनः वचनम् पूरणी प्रियादिषु अप्राप्तः पुंवद्भावः विधीयते महानवमी इत्यस्ति महती नवमी महती चासौ नवमी च इत्यस्ति समानाधिकरणसमासः कर्मधारयसमासः केन सूत्रेण समासः इत्युक्ते समासविधायकसूत्र शेषणं विशेष्येण बहुलम् Is that true? Is that correct? Why? No. This is Karmadharaya Samasa. It is true. San Mahat Paramottamutpushtaha Pujyamanaihi. Since it is Mahat Shabda, this is a specific sutra which we studied yesterday. San Mahat, Mahat Shabdaha Pujyamanaena Samasyate. अत एव तेन सूत्रेण समासः महती नवमी इति समासः तत्र महती इति स्त्रीलिङ्गे अस्ति द वर्ड् महती एक्सिस्ट् इन् बोत् लिङ्गास् इति महान् महती महत् त्रिषु लिङ्गेषु अपि अस्ति अतः भाषितपुंस्कम् सो कर्मधारये भाषितपुंस्का भाषितपुंस्कम् पुंवद् भवति पुंवत् नाम महत् इति भवति महती इत्यस्ति महत् इति भवति तस्य आन्महतः इत्यनेन आत्वं भवति सो महानवमी इति रूपम् नवमी इस् अ पूरणप्रत्ययान्त पूरणी पूरणप्रत्ययान्ते उत्तरपदे परे पूर्वस्य पुंवद्भावः पूर्वसूत्रेण न भवति स्त्रियाः पुंवत् इति सूत्रेण न प्राप्नोति अनेन सूत्रेण विधीयते महती नवमी महानवमी कृष्णा चतुर्दशी कृष्ण चतुर्दशी अत्रापि चतुर्दशी इति पूर्ण प्रत्ययान्तः सो द वर्ड कृष्णा यस् उम्मद्भाव टु फॉर्म कृष्ण महती प्रिया महाप्रिया प्रिया इति शब्दः प्रियादिगणे शब्दाः सन्ति तत्र प्रथमः शब्दः प्रिया इति सो वेन फॉलोड बाय प्रिया तत्रापि उम्मद्भावः भवति महाप्रिया इति भवति सो दट इज वन पर्पस ऑफ द सूत्र पूरणी प्रियादिषु अप्राप्तः उम्मद्भावः विधीयते इति एकम् अपरमपि प्रयोजनमस्ति तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते देयर आर सम निषेधास टोल्ड फॉर स्त्रियाः पुंवद्भाषितपुंस्कादनु सो आफ्टर दट सूत्र देयर आर सूत्र स्टार्टिंग विथ न कोपधायाः इन दीज देयर आर फाइव सूत्रस विच गिव अ निषेध फॉर पुंवद्भाव स्त्रियाः पुंवत् इत्यनेन यः पुंवद्भावः विधीयते तत्र पञ्चभिः सूत्रैः निषेधः वक्ष्यते तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते सो ऑलवेज आई एम टोल्ड प्रतिप्रसव इज अ निषेध इज पुनर्विधान टू ओवर रूल अ निषेध व्हेनेवर देयर इज अ निषेध टू ओवरकम दट निषेध पाणिनि टेल्स अ सूत्र अगेन दट इज कॉल्ड प्रतिप्रसव सो इन केस ऑफ कर्मधारया और Jatiyar and Deshiyar. Jatiyar and Deshiyar are two suffixes, Taddhita Pratyaha. We'll see the example later. So there are two Taddhita suffixes, Jatiyar and Deshiyar. So in Karmadharaya and in case of Jatiyar and Deshiyar, these Nishedha for Pumbadbhava will not apply. Even if the Nishedha exists, even in these cases, Pumbadbhava will happen. Tadartham Punarvidhanam. Nishedha Pancha Sutrani Santi Nishedha Na Kopadhayaha. क उपधा उपधा अलोन्त्यात् पूर्व उपधा द पेनल्टिमेट लेटर इज कॉल्ड उपधा देयर इज अ लास्ट लेटर सो द लेटर बिफोर द लास्ट लेटर ऑफ एनी पार्टिकल ऑफ एनी शब्द इज कॉल्ड उपधा कोपधा सो इफ देयर इज ककार इन द उपधा देन देयर इज नो पुंवद्भाव द फर्स्ट वन सेज सम्या पूरण्योश्च इफ द वर्ड इफ द स्त्रीलिंग वर्ड इज अ सम्या or if the samasa tells the samya or if there is a the stringa word is a purana pratyayanta then there is no pumbadbhava is the second one third one vritti nimittasya cha taddhitasya arakta vikare when there is a taddhita pratyaya which with the taddhita pratyayanta which leads to vritti vritti nimitta taddhita that is the third one the fourth one is swanga cheto amanini Swanga, if the vachaka, if the word is a swanga vachaka. Swanga is one's own organ. Tadvachaka shabdaha yadi asti. Jatesha, jati vachaka shabdaha yadi asti. Tarhi striyah kumbat iti pumbadbhavaha na bhavati. Iti panchabhihi sutrehi pumbadbhava nishedha vakshyate. We will study these sutras later. Yada bahubrihi samase pumbadbhavaha dhiyate. Tada yetesham jnanam bhavati. तम निषेधम बाधित्वा ओवरूलिंग ऑल दीज फाइव अनेन पुनर्विधानम कुंभत कर्मधारय जातीय देशीयेषु इत्यनेन पुनः विधीयते अर्थात एतेष्वपि स्थलेषु पुंवद्भावः भवति तस्य उदाहरणानि दीयन्ते पाचक स्त्री पाचिका स्त्री वुमन हू कुक्स पाचिका इत्यत्र ककारः उपधायाम् अस्ति कोपधः द ककार पाचिका इत्यत्र द लास्ट लेटर इज आ And the one before that is kakara. So since kakara is in upadha, nakopadhayaha is nishedha praptaha. So tam vadhitva anena vidhiyate pachika stri. Pachika ityasya pumbadbhave pachaka. Pachakaha pachika. So pachaka stri. Datta bharya. Datta bharya iti vigraha na vaktavyaha because it is a samya. Samya puranyoshtya. Samya. Datta bharya iti kasyas. Kasyashchana nama. Okay. So in case of a samya, there is pumbadbhava if it is karmadharaya. So datta ityasya pumbadbhave datta iti jatam. Panchami bharya. Panchami iti purana pratyayanta. You should not get confused. In the previous case, apurani priyadishu ityatra. Yadi purana pratyayanta shabdaha paratvena asti tada pumbadbhavaha nishiddhaha anena punaha vidhiyate. When you saw Mahanavami and Krishna Chaturdashi, the Uttarapada was Purana Pratyayanta. Here, the Purapada itself is Purana Pratyayanta. Tadapi Samya Puranyoshchetyanena Nishedha Praptaha. అనేన నిషేధ బాధ్యతే. అత పంచమీ భార్య ఇత్యత్ర పంచమీ ఇత్యస్య పుంవద్భావే పంచమ భార్య. శ్రౌఘ్నీ భార్య ఇత్యస్య శ్రౌఘ్న భార్య. శృఘ్న ఇస్ ద నేమ్ ఆఫ్ అ కంట్రీ. శృఘ్నస్య శృఘ్నదేశీయ ఇత్యర్థే తద్ధిత ప్రత్యయః అస్తి. తద్ధిత ప్రత్యయ అండ్ సో విచ్ లీడ్స్ టు వృద్ధి. శృఘ్న ఇత్యత్ర ఆదివృద్ధౌ శ్రౌఘ్న ఇది జాయతే. సో శ్రౌఘ్న ఇస్ అ తద్ధిత ప్రత్యయాంత వేర్ దేర్ ఇస్ అన్ ఆదివృద్ధి. సో ఇన్ దట్ కేస్ వృద్ధి నిమిత్తస్య చ తద్ధితస్య ఇత్యనేన నిషేధః ప్రాప్తః. సో దిస్ సూత్ర ఓవర్ రూల్స్ దట్ నిషేధ. సో శ్రౌఘ్నీ భార్య ఇత్యత్ర పుంవద్భావే శ్రౌఘ్న భార్య. సుకేశీ భార్య కేశ స్వాంగ స్వాంగవాచక పద ఆర్గన్ శోభనా కేశా సుకేశీ ఇది పదం. సో సుకేశీ ఇస్ వన్ హూ హాస్ బ్యూటిఫుల్ హెయిర్. సుకేశీ భార్య ఇత్యత్ర స్వాంగాత్ స్వాంగవాచకాత్ పదాత్ స్వాంగవాచకస్యాపి పుంవద్భావః భవతి సుకేశ భార్య. అతః జాతివాచక శబ్దః. సో వెరెవర్ దేర్ ఇస్ ఎ జాతివాచక కుంభద్భావ వాజ్ ప్రివెంటెడ్ బై జాతేశ్చ. బట్ హియర్ ఇన్ కేస్ ఆఫ్ కర్మధారయ జాతివాచకస్యాపి పుంవద్భావః భవతి బ్రాహ్మణీ భార్య బ్రాహ్మణ భార్య. ఏవం పాచక జాతీయ పాచక దేశీయ ఇత్యాది. సో దిస్ ఇస్ ఎగ్జాంపుల్ ఆఫ్ జాతీయర్ అండ్ దేశీయర్. జాతీయర్ ఇస్ అ ప్రత్యయ విచ్ సేస్ హూ లుక్స్ లైక్ దట్ ఆర్ హూ హాస్ సిమిలారిటీ టు. పాచక జాతీయ షీ లుక్స్ లైక్ ఎ పాచిక ఇత్యర్థః. పాచక దేశీయ దేశీయర్ ప్రత్యయస్య కః అర్థః ఏన స్మరామి. ఐ డోంట్ రిమెంబర్ ద మీనింగ్ ఆఫ్ దేశీయర్. But both of them are tadhita suffixes. So when followed by these suffixes, pumadbhavah bhavati. Atayva pachika shabdate jatiya pratyaye krute. Pachaka jatiya iti pumadbhavah jatah. Evam pachika iti stilinga padate deshiya pratyaye krute. Pachaka deshiya iti jatah. So this is a sutra for pumadbhava. Idanim kimartham iti yukte. Asmin sutre. We are studying Potayavati. The Samasa Sutra which we are studying is Potayavati Stoka Katipaya etc. Atra api Samanadhikaran Karmadhaya Samasaha etyatra atra Pumvadbhavaha Bhavati iti darshi. Ityatadartham sat sutram atra thapitam. Pumvad Karmadharaya Jatiya Deshiyeshu. Ibhi Pota Ibha Pota. Pota Stri Pumsa Lakshana iti ucchate. So Pota is vyakti who has the lakshanas of both stri and pum like napumsaka ityarthah. So ibhi pota ibha nama gajaha ibhaha nama gajaha ibhi nama gajasya strilinge ibha shabdasya strilinge ibhi iti rupam. So ibhi pota iti samanadhikarana samase. So ibhi ityasya pumvat karmadharaya jatiya deshiyeshu ityanena పుంవద్భావే కృతే ఇభ పోట ఇతి రూపం. సమాసః పోటాయవతి ఇతి సూత్రేణ పుంవద్భావః పుంవత్కర్మధారయ జాతీయ దేశీయేషు ఇతి సూత్రేణ. ఇభి యువతిః ఇభ యువతిః. యువతిః ఇస్ అ యంగ్ ఎలిఫెంట్, అ యంగ్ ఫీమేల్ ఎలిఫెంట్. తతే ఇభి యువతిః అత్రాపి పుంవద్భావః ఇభ యువతిః. అగ్నిః స్తోకః. స్తోకః నామ అల్పః ఇత్యర్థః. అగ్ని స్తోకః. So these are just examples of all the pota, yuvati, stoka, katipaya. Udashvit katipayam. See, udashvit nama takram. So katipayam ityasya api alpam ityartha. Udashvit katipayam. A little buttermilk. Grishtihi sakrat prasuta go grishtihi. So then pota yavati stoka katipaya grishti shabdha asti. Grishti shabdasya artha kaha ityate sakrat prasuta. I think I made a mistake last time. I told Dhenu as Sakrut Prasuta. Actually, it is Dhenu is Nava Prasuta and Drishti is Sakrut Prasuta. So, an animal which has had one calf is called Drishti. Gauhu Drishtihi, Go Drishtihi. Dhenu ho Nava Prasuta. Dhenu is an animal which has recently had a calf. I had confused myself and I have given the wrong information. So, Dhenu ho Nava Prasuta. Dhenu is an animal which has recently had a cow. So, gohu dhenuhu. A cow which has recently had a calf is called godhenuhu. Go iti, gohu iti, jati vachaka shabdaha, jati hi, ebhi hi samasyate. Vasha vandhya, go vasha. Vasha nama vandhya. Vandhya is a cow which does not have a calf. Okay, which does not have any calf is called vasha. So, gohu vasha, go vasha. Vehad garbhagatini. So an animal which, whose calf has died within the uterus, that is when there has been an abortion, that is called vehat. Garbhagatini. Go vehat. Gauhu vehat. Go vehat. Bashkaini ataruna vatsa. So bashkaini itiasya ataruna vatsa. An animal whose calf is not young. That is the calf itself has grown up. So, and this cow is old. Go bashkayani. Gauhu bashkayani. Go bashkayani. So, you can see that there are so many words for animals. I mean, always. It shows that Sanskrit was used in case where cow was the most important animal. So, mostly with reference to cow or even other cattle and other animals. It is not only for cows. All animals which belong to the cattle class. Mostly you can use these words. Pota ivati stoka katipaya grishti dhenu vasha vehad bashkayani pravaktra shrotriyadhyapaka dhurtaihi. So katha pravakta katha shrotriyaha katha adhyapaka katha dhurtaha. Parvatra kataha pravakta kataha shrotriyaha. Pravakta is who lectures, okay, lecturer. Shrotriya is again an adhyapaka itteva arthe. There are specific definitions for these, but generally used for he who teaches itteva. Katha pravakta, katha shrotriyaha, katha adhyapaka. Kataha dhurtaha, katha dhurtaha. Katha is the shakha everywhere. Katha shakha adhyayi itteva. Kataha pravakta itteva. Katha shakha adhyayi pravakta itteva. So that is the sutra. It is just, there is a set of words, so you have to remember examples for each word. Prashamsa vachanaischa iti adrimam sutram. Etai saha jatihi pragvate. Prashamsa vachakaihi padaihi saha jati vachaka shabdaha samasyate. Samanadhikaranena satat purushaha shikyartaha. Gomatallika, gomacharchika, goprakandam, gavodhaha, gotalladaha. So there are these five words which are called prashamsavachaka. There are words which indicate praise. So matallika, macharchika, prakandam, uddhaha and talladaha. There are five words. Taihi saha jativachaka shabdaha samasyate ityarthaha. So these five prashasta gauhu ityarthaha. The meaning of all these words is a gau which is praiseworthy, a cow which is praiseworthy, a good cow ityarthe, sheshtha gauhu ityarthe, etesham shabdanam prayogaha. So matallikadayaha niyatalingaha natu visheshanignaha. These five words, they are very special. The Amarakosha says, matallika, macharchika, prakandam, uddhatallajau, prashasta vachakani amuni. Amara, you can see a lot of references to Paninian grammar in the Amarakosha and vice versa. So he is very clear. Prashasta vachakani, prashamsa vachanani nama, these five, he lists the five. Matallika, macharchika, prakanda muddhatallajau, prashasta vachakani amuni. So these are all prashamsa vachaka and they are niyata lingas. That is, they have a specific linga. Matallika is always strilinga. Macharchika is also always strilinga. Whether you are referring to a stri or a puman. So you can say panditaha matallika ityate. Pandita matallika iti strilinge bhavati. So even though it is a visheshana, natu visheshyanigna. It's visheshyanigna is a word whose linga vachana vibhakti changes with the visheshya. So normal adjectives are all like that. Their linga, vibhakti and vachana all depend on the linga of the visheshya. Kintu ete shabdaha niyata lingaha. So whether you are referring to a man or a woman or a thing, matallika iti strilinge eva bhavati. Pandita matallika iti prayogaha asti, evam macharchika. Evam prakandam iti sarvadana pumsakalinge eva. Whether you are referring to a man, woman or a thing, pullinge, strilinge, napumsakalinge eva bhavatu visheshyam. ప్రకాండం ఇది నపుంసకలింగే వా పండిత ప్రకాండం విద్వత్ ప్రకాండం ఇత్యాదయ ప్రయోగాః సంతి ఏవం ఉద్ధః తల్లజః ఇతి పుల్లింగే ఏవ సో దోస్ వర్డ్స్ ఆర్ ఆల్వేస్ ఇన్ పుల్లింగ సో దీస్ ఫైవ్ మీనింగ్ ఇస్ తదేవ ప్రశస్తం శ్రేష్ఠః ఇత్యర్థః సో దే ఆల్ మీన్ mean prashamsa, they are used for praising, they mean a great or a good something. Gomatallika is a shreshtha gau. So, etai saha jativachakam samasyate. So, that is because of that, the jativachaka has purvanipata, goshabda se purvanipata. It need not be goshabda, he gives that, but it could be any jativachaka shabda. జాతికిం కుమారీ మతల్లిక జాతి ఇది అనువర్తతే పూర్వసూత్రేణ జాతి ఇది అనువర్తతే జాతివాచక శబ్దస్యైవ సమాసః కుమారీ మతల్లిక ఇత్యస్తి శ్రేష్ఠ కుమారి కుమారీ ఇది వయోవాచకం పదం నతు జాతివాచకం ఇట్ ఇండికేట్స్ ద కిం ఏజ్ ఆఫ్ ద గర్ల్ అ మేడన్ ఇత్యర్థః సో కుమారీ మతల్లిక ఇత్యస్య సమాసః న భవతి జాతివాచక శబ్దస్యైవ జాతివాచకస్య శబ్దస్యైవ సమాసః కుమారీ మతల్లిక ఇత్యత్ర సమాసః నాస్తి అగ్రిమం సూత్రం యువా ఖలతి ఫలిత వలిన జరతీభిః పదద్వయమస్తి యువా ఇది ఏకం పదం ఖలతి ఫలిత వలిన జరతీభిః ఇది అపరం పదం యువన్ శబ్దః ద వర్డ్ యువన్ కంబైన్స్ విత్ దీస్ ఫోర్ వర్డ్స్ ఖలతి ఫలిత వలిన అండ్ జరతి వెన్ దెర్ ఇస్ సమానాధికరణ్య సహ తత్పురుష ఇత్యర్థ పూర్వ నిపాత నియమార్థం సూత్రం అగైన్ ఇట్ ఇస్ టు మేక్ ష్యూర్ దట్ యువన్ ద వర్డ్ యువన్ ఇస్ ఆల్వేస్ కమ్స్ ఫస్ట్ తదర్థం సూత్రం లింగ విశిష్ట పరిభాషయ యువతి శబ్దోపి సమస్యతే ద సూత్ర టెల్స్ యువా ఇన్ పుల్లింగ బట్ ద పరిభాష ప్రాతిపదిక గ్రహణే లింగ విశిష్టస్యాపి గ్రహణం వెనెవర్ అ సూత్ర రిఫర్స్ టు ఎ పర్టిక్యులర్ ప్రాతిపదిక బోత్ ద లింగ ఇఫ్ ఇట్ ఇస్ టోల్డ్ ఈవెన్ ఇఫ్ ఇట్ ఇస్ టోల్డ్ ఇన్ పుల్లింగ ఇట్ రిఫర్స్ టు బోత్ పుల్లింగ అండ్ స్త్రీలింగ ప్రాతిపదిక గ్రహణే వెరెవర్ దెర్ ఇస్ ప్రాతిపదిక బీంగ్ మెన్షన్ లింగ విశిష్టస్య సో ఈవెన్ ద వర్డ్ విత్ ద అదర్ లింగ దట్ ఇస్ యాడెడ్ స్త్రీ ప్రత్యయ విల్ ఆల్సో బి కన్సిడర్డ్ సో దేర్ ఫోర్ యువతి శబ్ద అపి సమస్యతే హియర్ ద వర్డ్ యువా యువన్ ఇన్ పుల్లింగ విల్ కంబై తథైవ యువతి శబ్ద స్త్రీలింగే యువన్ శబ్దస్య స్త్రీలింగే యువతి ఇది భవతి యువత శబ్దస్యాపి సమాసః భవతి యువా ఖలతిః యువ ఖలతిః పుల్లింగే యువన్ శబ్దస్య ఖలతి శబ్దేన సమాసః ఖలతిః కేశహీన శిరాః కేశహీన శిరాః హి హు డస్ నాట్ హావ్ హెయిర్ ఆర్ హూస్ హెయిర్ హావ్ ఫాలన్ ఆఫ్ అట్ ఎ యంగ్ ఏజ్ యువా ఖలతిః యువ ఖలతిః ఏవమేవ యువతిః ఖలతి యువఖలతి సో బోత్ యువన్ అండ్ యువతి బోత్ పుల్లింగ అండ్ స్త్రీలింగ దేర్ ఇస్ అ సమాస యువఖలతిః అండ్ యువఖలతి సో ఖలతి ఇస్ ఖలతిః ఇస్ పుల్లింగ అండ్ ఖలతి ఇస్ స్త్రీలింగ కేశహీన శిరాః సో హెయిర్ ద హెడ్ వేర్ ద హెయిర్ హావ్ ఫాలన్ ఆఫ్ యువజరతి యువతిః జరతి యువజరతి సో a woman, she is young, but she looks like an old woman. Ityartha, yuva jarati. Evam, yuva palita and valina is also there. Palita ityasya, shweta keshaha, isyaha, keshaha, isya, isyaha, va, keshaha, shweta ha jataha, palita ityartha. Valina shabdasya kortha, iti, okay, I saw this and I forgot. Just a second. వలీన పదస్య రింకల్డ్ ఇత్యర్థ సో ఇన్ యువతి వలీనా యువవలీనా ఇత్యస్య షీ హూస్ ఫేస్ హాస్ గాట్ రింకల్స్ అట్ ఎ యంగ్ ఏజ్ ఇత్యర్థ సో దే ఆర్ ఆల్ సైన్స్ ఆఫ్ ఓల్డ్ ఏజ్ ఫలిత వలీన జరతి జరతి ఇస్ ఓల్డ్ ఏజ్ ఇట్ సెల్ఫ్ వలీనా ఇస్ హ్యావింగ్ రింకల్స్ ఫలిత ఇస్ హ్యావింగ్ అ వైట్ హెయిర్ and Khalati is having no hair. So they are all signs of old age. When the signs appear in a young age, you have this kind of a samasa. So yuva khalati palita valina jarati bhihi. This is sutram. So there was a question about the previous sutra, Kumari Matallika. Kumari is not a jatiwachaka shabda. In the sutra, the samasa is only for words which indicate jati. Kumari is not a jati. Okay, it is a vayovachaka. That is, it indicates age. So there are different opinions as to what age is Kumari. Some say 8 to 12, some say till 16, etc. But it is a girl who is in that age, ityarthe. Tatra jatiwachakatvam nasti ityarthaha, samasaha na bhavati ityarthaha. So moving on. So yuva jarati, yuvatva, yuvatyameva jarati dharma upalambhena tadrupāropa samānādhikaranyam. So this is saying yuva jarati. There is yuvati is different and jarati is different. Yuvati is a young woman and jarati is an old woman. So how is there a samānādhikaranyam between yuvati and jarati is a question. So he says here it is, the yuvati and jarati do not refer to two different padarthas. Yuvatyameva jarati dharma upalambhena. In the young woman itself, some characters of the old woman are found. Jattad ruparopa. So the form of a old woman is found in a young woman. Ityarthe samanadhikaranyam. It refers to the same person. It is not that a young person and an old person are different. Katham samanadhikaranyam ityarthe. Bhinnaha padartha navivakshate. Yuvatyameva jarati dharma aropyate. So the characters of jarati are found in the yuvati itself. Ata eva samanadhikaranyam. Tatra samanadhikarana samasaha. Tatra atrapi kumadbhavaha asti. You see, yuvakhalati athava yuvajarati ityatra kumadbhavaha drishyate. Yuvati is the word. Kumadbhave sati yuvan iti bhavati nakaraha lupyate. The nakara is lost by naropa pratipadikantasya. So you have yuvakhalati and yuvajarati. Krutyatulyakhya ajatya. Jati bhinnena padena samasyante. Krutyapratyayantaha tulyavachakascha. Words which are ending in krutyapratyayas. Krutyapratyayaha tavyatavyaniyaraha yat miyat kepaha kedimar. Sapta krutpratyayanam krutyaha iti samya. So krutyapratyayantaha tulyavachakaha and words which are synonyms of tulya, tulya, sadrishya, sama, etc. Jati bhinna vachakena, ajatya, nama jati bhinna vachakena samanadhikaranena samasyante satat purushaha. Bhojyam ushnam, sasti bhojyam iti bhujadhatoho netpratyayanta shabdaha. So bhojyam iti krutyapratyayantaha. Ushnam ityasti, ushnam iti gunamachakam, natu jati vachakam. So jati bhinna vachakena samasyante bhojyoshnam, bhojyam ushnam, bhojyoshnam, hot meals. Tulyaha shvetaha, tulya shvetaha. So tulya is similar to shveta is white. Punaha shvetaha iti jati vachaka shabdaha nasti, gunamachaka shabdaha. So tulya shvetaha, so having whiteness similar to something, tulya shvetaha. Evam sadrashaha shvetaha, sadrasha shvetaha, tulya akhya ityuktadvata, tulya vachakaihi, nama tulya ityasya pariyayaihi samasaha bhavati, pariyayaha samasyante, so sadrasha shvetaha ityapi bhavati. Ajatya kim, jati vachaka shabdaha na bhavet, iti uktam, bhojyaha odanaha ityasti. Bhojyam is nyat, not namul. Bhujadhatohu nyat pratyaha. So which belongs to pratyas. So bhojyaha odanaha ityasti. Odana shabdaha jati vachakaha. Katham iti drashtavya. Where is odana ajati? Okay, so but so the example is given, odana is a jati vachaka shabda. So with ajati vachaka samasa will not take place. So bhojyaha odanaha ibhinna eva prayogaha. Pratishedha samadhyat visheshana samasaha api na. So because it says ajatya, if kritya pratyayanta word combines, it has to be with a jati bhinna vachaka. In this case, you could have combined with visheshanam visheshena bahulam. Odana, which can be eaten. Bhojya is that which can be eaten. Ityarthaha bhujyate iti bhojyam. So bhojyaha odanaha ityatra visheshanam visheshena bahulam ityanena api samasaha na bhavati. This samasa will not happen because there is ajatya. Pratishedha samadhyat. Because of the pratishedha, visheshana samasaha, nama visheshanam visheshena bahulam iti sutrena api samasaha na bhavati. Yadi jati vachaka shabdaha, tarhi tena saha, kritya pratyayantasya samasaha na bhavati. Ityarthaha, bhojyaha odanaha iti vyastaha eva prayogaha. Varno varnena. Yagravam sutram samanadhikaranena saha pragvat krishnaha sarangaha krishna sarangaha. So when there are two varnavachaka shabdas, so it means a mixed color. There are two words which indicate color which are combining. So you have krishnaha sarangaha. Krishna is black and saranga is a mixed color, chitravarnaha. Sarangaha chitravarnavan. So krishnaha sarangaha, so something which is both black and has a mix of other colors is called Krishna Saranga. Varnaha samanadhi karanena varnaena samasyate. So Krishna Sarangaha iti udaharanam. Kadarah karmadharaye iti Antimam sutram. So this is a sutra which refers to Purva Nipata in Karmadharaya. Upasajjanam purvam ityataha purvam iti anuvartate. Kadaradayaha shabdaha karmadharaye va purvam prayojyaha. There is an optional purva nipata for these words. Words belonging to the kadaradigana, when they are in the karmadharaya samasa. So whether they are upasarjana or not, independent of that, there is an optional purva nipata. So they can either be found in as the purva pada or as the uttara pada. Kadara jaiminihi jaimini kadaraha. Kadaraha jaiminihi. So kadaraha ityasya punaha varnavachaka shabdaha. Kadara is an orangish brown color, what is called as a tawn, T-A-W-N, tawny is the kadara. I am actually not sure why this udaharana, kadara jaimini, jaimini padasya asmin udaharane kaha thaha iti na avagatamaya. I tried to find out because jaimini is the name of a rishi, sage, which we all know. Siddhu kadaraha jaiminihi ityasya kaha arthaha. Jaimini shabdasya anya kopi arthaha asti. Was there any other meaning for the term jaimini? I want to find out. I tried but vyakhyane kutrapi kimapi na drishtam. Samasastu kadaraha jaiminihi iti tatra kadaraha kadara iti shabdasya vikalpena purva nipataha iti tattvata kadara jaiminihi ityapi bhavati jaimini kadaraha ityapi bhavati. Samasta padasya vastutaha kaha arthaha iti na spashtam. It is not clear to myself. So I'm sorry, but I'll try to find out. If I find out, I'll let you know. So continuing with sutras of Karmadharaya, Kumaraha Shramanadidhihi. So the word Kumara combines with words in the Shramanadigana. There are certain words in the Shramanadigana, in the class Shramana. So with those words, the word Kumara will combine. So as we saw in Yuvan, Yuvan and Yuvati, here also both Kumara and Kumari will combine. So Kumari Shramana, Kumara Shramana. So Kumbad Bhave Krute, Kumara Shramana iti rupam. Shramana parityakta sarvasanga. Shramana refers to a sannyasini, she who has sacrificed the, or she who is has taken sannyasa. Parityakta sarvasanga, who has given up all worldly attachments. Ityarthe shramana shabdaha. Kumari shramana, kumara shramana. Ihagane Shramana pravrasita garbhini ityadayaha sthrilingaha pathyante. There is something special in this sutra. I mean, there is something different between this sutra and the previous. Yuva phalati palita valina garatita. In that sutra, the words palita Valina, etc., they can be in both lingas. It says Khalati, Palita, Valina. So it can be either Pullinga Khalati ki or Srilinga Khalati, etc. But in this case what happens is there are the Gana itself, Shramanadi Gana itself, it contains only Srilinga words. Shramana, Prabhrajita, Garbhini, Ityadayaha. Srilinga ha patyante. It has only Srilinga words and the word given is Kumaraha in Pullinga. So how, there is no Pullinga word in the Gana. Okay, when he specifies the Srilinga, it means there are Srilinga words. So he should have said Kumari Shramanadivihi. Intu Kumaraha Shramanadivihi iti uchyate. Linga Vishishta Paribhashayaha Etadeva Gyapakam Bodhyam. This itself is proof for the Paribhasha. Paribhasha says Pratipadika Grahane Linga Vishishta Syapi Grahanam. So whenever they are considering the Pratipadika, you should also consider Linga Vishishta, that which also has a Linga Bodhaka Pratyaya. So Kumara is a Pada, Pratipadika. So when you add a Neep Pratyaya, a Stri Pratyaya to that, Stri Pratyaya is the Linga Bodhaka Pratyaya. So Linga Vishishta Syapi Grahanam, Arthat is Stri Pratyaya Sahita Syapi, Kumari Shabda Syapi Grahanam Ityarthaha. So what is the proof of this paribhasha iti pashyamashchete? Idameva sutram yapakam. So in this sutra, he says Kumaraha and he says Shramanadivihi. The word, the class, the Shramanadigana contains only Srilinga words. If you do not accept this paribhasha, the word Kumara in Pullinga, it can never combine with words given in this Gana. Okay, so the samasa itself will never happen. Unless you consider the Linga Vishishta, that is the Srilinga word. Yada Kumari ityasya grahanam bhavati tadaiva samanadhikarana samasaha bhavitum arhati. Yatohe asmin gane sarvepi Srilinga shabdaha eva pathitaha. So unless you consider Linga Vishishtasyapi grahanam yadi na bhavati, tarhi idam sutram vyartham kadapi samasaha bhavitum narhati. Tenaiva jnayate pratipadika grahane Linga Vishishtasyapi grahanam. So this sutra is proof of this paribhasha, and the paribhasha is used widely everywhere. In many sutras we use this paribhasha. So wherever there is pratipadika grahana in the sutra, wherever Pranini is referring to a pratipadika, it refers to that, he generally refers to in the pullinga, so it will also consider the Srilinga. Chatushpado garbhinya. Chatushpad jati vachinaha garbhini shabdena saha pragvat. So a jati vachaka shabda, chatushpad jati, and the jati of four legged animals, that is jati of animals, prani jati, chatushpat prani jati vachinaha shabdaha garbhini shabdena saha samasyante. Go garbhini, go shabdasya garbhini shabdena saha samasaha. Chatushpad jati riti vaktavyam iti vartikam. So those Sutrakara just says chatushpat, so any four-legged creature ityarthe. Chatushpat jati vachakam eva bhavet iti vartikam. Neha swastimati garbhini. So therefore when you are saying swastimati garbhini, so she is safe and healthy ityarthe. Swastimati shabdasya prayogaha garbhini ityarthe. So this could refer to a cow. Chatushpat bhavet, you are referring to a cow which is pregnant and which is safe. Tathapi jativachaka shabdaha nasti. Swastimati iti jativachaka shabdaha na. Ityataha atra samasaha na bhavati. Jativachaka seva samasaha. Visheshana samasaha api na bhavati. This is visheshana, but as we saw earlier, anishedha, when we say chatushpa jativachinaha eva garbhini shabdena saha samasyante iti niyamena, visheshana samasaha api na bhavati. Swastimati garbhini iti vyastaha eva prayogaha. Mayura vyamsakadayascha. This is the last sutra in Karmadhaya. Karmadhaya samase asmin pade, and this is the last sutra of this first pada of the second adhyaya of Ashtadhyayi. Mayura vyamsakadayascha. So this is something like a this gana, Mayura Vimsakadi gana, it is a gana. So, ete nipatyante, iti uchyate. They are all nipatanas. That is, siddha prakriyasya nirdeshaha nipatanam. So, the prakriya is already ready. You do not look at the prakriya. It does not say, ayam shabdaha anena saha samasyate iti nochyate. Siddham rupam diyate. A complete rupa is given here. And it is a very, you know, it's a, what do you call, a divergent gana. So it does not contain very similar words. There are many cases. So it includes all the miscellaneous parts of samasa. So whenever there is samasa not happening from any other sutra or there is some difficulty in prakriya, we put that in the Mayura Vyamsakadi gana and say Mayura Vyamsakaditva samasaha. There are many cases where samasa does not take place by the usual sutras or there is some difficulty in prakriya. So there is some different form, okay, special form. All of them are included in the Mayura Vyamsakadi gana. Mayuraha Vyamsakaha, Mayura Vyamsakaha. Vyamsakaha nama dhurtaha ityartaha, a cunning peacock ityartaha. Atra Vyamsakaha Visheshanam, Mayuraha Visheshyam. So yadi Visheshanam Visheshyena Bahulam Ityanena Samasaha, tarhi Vyamsaka Shabdasya Purvanipataha Sya. Kintu Asmin Gane Patitatvat, Mayura Shabdasya Purvanipataha, Mayura Vyamsakaha iti Gane Prathamam Padam. Udakcha Avakcha Uchavacham. Jasti. Uchavacha Naikabhedam ityamaraha. Uchavacham refers to many types ityarthe. Many different things. When there is something which occurs in many different kinds, we call it as Uchavacham. So Udakcha Avakcha iti Vigraha. So in many of these cases, you should not look at the meaning of the Vigraha and see what is the meaning of the Samasa. That is also the speciality. The Samasta Pada itself might have a different meaning. Okay. So we just give Vigraha for the purpose of derivation. Udak and Avak are the words combining. Udak ityasya uccha iti adeshaha, avat shabdasya avacha iti adeshaha api bhavati. Since this is a nipatana. So nipatana means siddha prakriya. You are giving, he just says uchavacham. So the samasa takes place and the different adesha also takes place. The final form is uchavacham. Nishchitancha prachitancha nishchapracham. Nishchapracham. Something which is very certain, ityarthe upayujyate. Very certain and well known. Ityarthe nishchapracham, ityasya prayogaha. Nishchitam, nishchita shabdasya nishcha iti adeshaha. Prachita shabdasya pracha iti adeshaha api nipatana deva bhavati. Nishchapracham. Nasti kinchana yasya saha akinchanaha. He who does not have anything. That is a poor man, ityarthe. Nasti kinchana. Akinchanaha iti samasaha. Nasti kuto bhayam yasya saha akuto bhayaha. He who does not have fear from anything. Akuto bhayaha iti prayogaha. So remember that the gana includes only the samasta padas. So the vigraha is later interpreted based on the meaning of the word. But actually in the gana only the siddha rupas are given. Anyaha Raja, Rajantaram. This is Aswapada Vigraha and Anitya Samasa. Another king, ityarthe Rajantaram, Nagarantaram, Gramantaram. It's a very famous form, but there is no Samasa Vidhayaka Sutra. There is no Sutra which gives Sutra Samasa. So we put, it has been put under the Mayura Vyamsakadi Gana. Chideva Chinmatram. So, chid eva, swarthe, so in its own sense, the word chit first combines with the word matra, chin matram. Chin matram is chit itself, chit is the chetana, sat chit ananda, so chit itself is called chin matra. Okay. So this is not a Bahuvrihi Samasa because Bahuvrihi, the Prakriya will not happen like this. Like if you do Bahuvrihi Samasa, the Prakriya or the form, you will not get this resultant form. So the resultant form can be attained only by putting it under the Mayura Vyamsakadi Gana. And this Gana is under the Tatpurusha Adhikara. So therefore it is Tatpurusha. As I keep telling, Anya Padartha Pradhana is not always Bahuvrihi. It is not that all Bahuvrihi is Anyapadartha Pradhana. Prayaha Anyapadartha Pradhana Bahuvrihi. So even in Tatpurusha there are cases where there is Anyapadartha Pradhana. Because this sutra falls under the Tatpurusha Adhikara, all words given in this gana are considered as Tatpurusha Samasas. Now, if you just combine Nasti Kinchana Yasya Saha in a Bahuvrihi Samasa, you will not end up with Akinchanaha because there is no sutra which will give that prakriya. So that is why it is Punta that मयूरव्यंसकादिगण तस्मिन् अर्थे अकिञ्चनः इत्यस्य प्रयोगः अस्ति किन्तु सः तत्पुरुष एव न बहुव्रीहिः ओके सो इट्स स्टॉप हियर अस्मिन् सूत्रे गणसूत्राणि सन्ति विद इन दिस मयूरव्यंसकादिगण देर आर गणसूत्रस् दैट इज सूत्र विद इन अ गण ओके सो वी विल सी दैट इन द नेक्स्ट क्लास एनाक्षरसमां नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः नास्तिकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीं विरच्यते